इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। निर्वाचनायोगेन प्रथमचरणीय लोकसभा निर्वाचनस्य सज्जतायाः समीक्षा कृता। आयोगेन देशे 50+300 निर्वाचन पर्यवेक्षकैः सह संवादं विहितम्। एकविंशति राज्येषु 2+100 संसदीय क्षेत्रेषु अस्य मासस्य 19 दिनांके मतदानं भविष्यति। अस्मिन् चरणे स्वतन्त्रं निष्पक्षं च मतदानं सुनिश्चेतुं निर्वाचनायोगेन 27+100 सामान्याः, 67 आरक्षि, 67+100 यावत् व्यय पर्यवेक्षकाः च नियोजिताः सन्ति। प्रथमचरणीय मतदाने 7 दिनानि एव अवशिष्टानि, अतः दलानां प्रचारोऽपि वर्धितः। देशे सर्वत्र विभिन्न राजनैतिक दलानां शीर्षनेतारः नैरन्तर्येण देशस्य विभिन्नेषु भागेषु नैर्वाचनिक सम्मर्देषु संघर्षरताः सन्ति। प्रधानमन्त्रिणा भाजपेति दलस्य वरिष्ठ नेत्रा च नरेन्द्रमोदिना ह्यः वाड़मेरनगरे निर्वाचन सभां सम्बोधयता प्रोक्तं यत् विपक्षिदलानि संविधानस्य आवरणे असत्यम् आक्षादयन्ति। स स्पष्टं कृतवान् यत् संविधानं कस्यापि परिस्थितौ निरस्तं कर्तुं न शक्यते। श्रीमोदी अवदत् यत् कांग्रेसदलेन दशकं यावत् अनुसूचितजाति अनुसूचितजनजातिः विरुद्धं भेदभावं कृतम्। अद्य च संविधानस्य नामाधारे मृषाभाषयन्ति। प्रधानमन्त्रिणा भाजपादलस्य प्रमुखनेत्रा नरेन्द्रमोदिना ह्यः जम्मूकश्मीरस्य उधमपुरक्षेत्रे एका नैर्वाचनिक सभा सम्बोधिता। उक्तं च तेन यत् तस्य प्रशासनेन केन्द्रशासित प्रदेशानां सुदीर्घा पीड़ा परम्परा समिता। तेन जनाः आश्वासिताः यत् शीघ्रमेव जम्मूकश्मीरं केन्द्रशासित प्रदेशात् पूर्णराज्यं भविष्यति। सहैव हि अत्र विधानसभा निर्वाचनान्यपि सम्पत्स्यन्ते। तेन अग्रे उक्तं यत् दशकेभ्यः अनन्तरं जम्मूकश्मीरे आतंकवादस्य भयं विना विनैव च सीमा सम्बन्धितायाः आशान्त्याः च राज्ये निर्वाचनं भविष्यति। तेन वंशवादीयाः राजनीतिम् आलोच्यता प्रोक्तं यत् केनापि जम्मूकश्मीर राज्यस्य तादृशी हानिः न कृता यादृशी हानिः परिवार परिचालितैः दलैः कृतमस्ति। तेनोक्तं यत् सम्भावितानि निर्वाचनानि केवलं सांसदानां निर्वाचनानि न सन्ति अपितु सुदृढस्य केन्द्र प्रशासनस्य घटनाय सन्ति। ध्येयं वर्तते यत् प्रथमचरणे अस्मिन् 17 राज्याणां 4 च केन्द्रशासित प्रदेशानां 2+100 लोकसभाक्षेत्रैः सह सिक्किम प्रदेशस्य 32 विधानसभा क्षेत्रेषु अरुणाचल प्रदेशस्य च 6 विधानसभा क्षेत्रेषु अस्य मासस्य 21 दिनांके मतदानं भविता। आईपीएल इति क्रिकेट क्रीडा स्पर्धा मालिकायां ह्यः दिल्ली कैपिटल्स दलेन लखनऊ सुपर जॉयंट्स इत्येतं दलं 6 पराजितम्। तत्रैव अद्य अन्यतमा प्रतिस्पर्धा मोहाली नगरे क्रिकेट क्रीडांगणे पंजाब किंग्स राजस्थान रॉयल्स दलयोः मध्ये सायं 7:30 भविष्यति। लोकसभायाः तृतीयचरणीय मतदानाय नामांकन पूरणस्य प्रक्रिया निर्वाचनायोगस्य अधिसूचनायाः अनन्तरं प्रवर्धिते। अस्मिन् निर्वाचनचरणे मतदानं मई मासस्य 7 दिनांके भविष्यति, यत्र 10 राज्यैः सह 2 केन्द्रशासित प्रदेशयोः 94 लोकसभाक्षेत्रेषु मतदानं भविष्यति। इति वार्ताः।